प्रतिवसन्त्येताभ्यश्च नमो नमो ऊर्ध्वायै दिशे याश्च देवताः एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमो अधरायै दिशे याश्च देवताः एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमो अवान्तरायै दिशे याश्च देवताः एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमः। गङ्गायमुनयोर्मध्ये ये वसन्ति ते मे प्रसन्नात्मानश्चिरञ्जीवितं वर्धयन्ति। ॐ नमो गङ्गायमुनयोर्मुनिभ्यश्च नमो नमो गङ्गायमुनयोर्मुनिभ्यश्च नमः। सन्ध्यायै नमः, सावित्र्यै नमः, सरस्वत्यै नमः, सर्वेभ्यो देवताभ्यो नमः, देवेभ्यो नमः, ऋषिभ्यो नमः, मुनिभ्यो नमः, पितृभ्यो नमः, गुरुभ्यो नमः, कामोकार्षीन् मन्युरकार्षीन् नमो नमः, पृथिव्यापस्तेजो वायुराकाशात् ॐ नमो भगवते वासुदेवाय। यागं सदा सर्वभूतानि चराणि स्थावराणि च सायं प्रातर्नमस्यन्ति सामा सन्ध्या अभिरक्षतु। शिवाय विष्णुरूपाय शिवरूपाय विष्णवे, शिवस्य हृदयं विष्णु, विष्णोश्च हृदयगुं शिवः, यथा शिवमयो विष्णुरेवं विष्णुमयः शिवः। यथान्तरं न पश्यामि तथा मे स्वस्तिरायुषि। नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च जगद्धिताय कृष्णाय गोविन्दाय नमो नमः। आकाशात् पतितं तोयं यथा गच्छति सागरं, सर्वदेव नमस्कारः केशवं प्रति गच्छति। उत्तमे शिखरे जाते भूम्यां पर्वतमूर्धनि, ब्राह्मणेभ्योऽभ्यनुज्ञाता गच्छ देवि यथा सुखम्। स्तुतो मया वरदा वेदमाता प्रचोदयन्ती पवने द्विजाता, आयुः पृथिव्यां द्रविणं ब्रह्मवक्षसं मह्यं दत्त्वा प्रजातं ब्रह्मलोकम्। नमोऽस्त्वनन्ताय सहस्रमूर्तये, सहस्रपादाक्षिशिरोरुबाहवे, सहस्रनाम्ने पुरुषाय शाश्विते, सहस्रकोटियुगधारिणे नमः। इदं द्यावा पृथिवी सत्यमस्तु पितर्मातः, यदि होपब्रुवे वां भूतं देवानाम् अवमे अवोभिः। विद्यामेषं वृजनं जीरदानं, सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलं, तत्फलं पुरुषमाप्नोति स्तुत्वा देवं जनार्दनं। श्रीस्तुत्वा देवं जनार्दन ॐ नम इति वासनाद्वासुदेवस्य वासितं ते जगत्त्रयम्। सर्वभूतनिवासोऽसि वासुदेव, नमोऽस्तु ते।